लक्ष्मीलज्जे महाविद्ये श्रद्धे पुष्टिस्वते ध्रुवे महारात्रि महाविद्ये नारायणि नमोस्तुते मे ते सरस्वती वरे बोधिवा प्रविदामसि नियदे त्वं प्रसीदेशे नारायणि नमोस्तुते सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते वये व्यस्त्राहिनो देवी दुर्गे देवी नमोस्तुते ये दत्ते वदनं सौम्यं लोचनत्रयभूषितं पादुनः सर्वभिदिभ्यः कात्यायनि नमोस्तुते ज्वालाकरालमत्युक्रम् अशेषासुरसूदनं त्रिशूलं पादुनो वीतेर्भद्रकाली नमोस्तुते हीनस्थितैत्यतैजोंसी स्वनिर्णा पूर्यया जगत् साकण्ठो पादुनो देवी पापेभ्यो न सुदानिवः असुरासृक्वसा पङ्क चर्चिदस्ते करोज्ज्वलः शुभाय खड्गो भवतु चण्डिके त्वां नदा वयम् रोकानशेषानवहंसि दुष्टा रुष्टादुकामान् सकलानभीष्टान् त्वमाश्रितानां न विभन्नराणां त्वमाश्रिता ह्याश्रयतां प्रयान्तीं ये दत्कृतं यद्गहनं त्वयात्य धर्मद्विषां देवि महासुराणां रूपैरनेकैर्बहुतात्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्यां विद्याशु शास्त्रेषु विवेकदीपेषु वाक्येषु वात्येषु च खात्वदन्यां मम त्वकातेति महान्तकारे विभ्रामयत्येतदतिव विश्वं रक्षांसि यत्रोग्रविषाचनाका यत्रारयो तस्य बलानि यत्र तावानलो यत्र तदाब्धिमध्ये तत्र स्थिता त्वं परिभासि विश्वं विश्वेश्वरी त्वं परिभासि विश्वं विश्वात्मिका तारयसीति विश्वं विश्वेशवन्द्या भवन्ति विश्वाश्रयाये त्वयि भक्तिनम्राः देवी प्रसीद परिपालय नोरिभीतेर्नित्यं यदा सुरवदा ततु नैव सत्यः पापानि सर्वजगदां प्रशमं तयासु उत्पादभागजनितां च महोपसर्गान् प्रणदानां प्रसीदत्वं देवि विश्वार्तिहारिणी त्रैलोक्यवासिनामीत्ये लोकानां वरदा भवम्।